तद्देवननं सौम्यं लोचनत्रयभूषितं पातु नः सर्वभिर्भ्यः कात्यायनी नमोऽस्तु ते। Yeah, I'm not the only one who's been through it.